रत्नप्रदीपविशदीकृतसौधमध्ये मुक्तस्मि कर्तम निरञ्जितहेममञ्चे शुद्धक्रियासुरवधूकलितोपचारैः उत्तिष्ठसुन्दरविनायकसुप्रभातम् पीताम्बरेण मृदितेन मदङ्गकन्या वक्षोजचन्दनमयेन भुजान्तरेण कण्ठेन लग्नतिलकेन च पुष्पतल्पात् उत्तिष्ठसुन्दरविनायकसुप्रभातम् वीणामृदङ्गपनवादिविचित्रवाद्यैः गायन्ति नागललनास्तव पुण्यकीर्तिम् शृण्वन्निदम् मधुरगीतममन्दहर्षः उत्तिष्ठसुन्दरविनायकसुप्रभातम् सप्तर्षयः सरसनिर्मधुकैटभादिः इन्द्रादिदेवनिकरः स नकादयश्च काङ्क्षन्ति दर्शनमनन्यतया प्रपन्नाः उत्तिष्ठसुन्दरविनायकसुप्रभातम् वेदाः सहोपनिषदाग्निकरेण मूर्धाः ब्रह्मा प्रणम्य शिरसा परमेष्ठिमुख्यैः भक्त्या स्तुवन्ति घृतकेतरवाञ्छितैः स्वाम् उत्तिष्ठसुन्दरविनायकसुप्रभातम् अत्युन्नतोऽधिपवनो वृषभक्तकुद्मान् श्रेतस्तुरङ्गमपतिस्प्लवकश्च वृष्ण त्वद्दर्शनाय पुरताम् विनयेन तिष्ठन् उत्तिष्ठसुन्दरविनायकसुप्रभातम् उद्दीव्यताम् नवधृतैरभिगन्धतैलैः धृत्वा सुवर्णकलितान् कवयः प्रदीपान् वाञ्छन्ति चारुतरमण्डलमीक्षितम् त्वाम् उत्तिष्ठसुन्दरविनायकसुप्रभातम् आहृत्य पुण्यसलिलानि नदीनदेभ्यः रत्नाभिषेककलशैर्विधिना विधिभ्यः काङ्क्षन्ति देवमभिषेचयितुम् महाद्रम् उत्तिष्ठसुन्दरविनायकसुप्रभातम् पीताम्बराणि विविधानि विभूषणानि यज्ञोपवीतमनघम् हरिचन्दनम् च आदाय भाग्यमखिलान् सवमण्डनार्थम् उत्तिष्ठसुन्दरविनायकसुप्रभातम् धृत्वा पयोमधुघृतम् मधुरम् च सत्त्वम् प्रातस्तवाप्यवहराय हिरण्यपात्रैः सञ्चायिने विनयिनस्तवसूतवर्याः उत्तिष्ठसुन्दरविनायकसुप्रभातम् भागीरथीजलविहारकुतूहलाय दिक्कुञ्जराष्टकसमावृतपार्श्वकाय शैलेन्द्रजाग्रतिजपुण्यजलाधिकाय उत्तिष्ठसुन्दरविनायकसुप्रभातम् मन्दारवृन्दहृदयाम्बुजभास्करस्य मन्दारमूलमनिपीठसुखस्थितस्य तीव्रादिसेविजनमण्डलमण्डितस्य स्वानन्दबद्धनपतेस्तव सुप्रभातम् कैलाशशैलमनिमोदकरम् प्रसारम् शूलाद्यमद्यगतकम्पकमूलशायम् भक्तो व्रजस्य निखिलस्य च मुक्तिदायिन् विघ्नम् विनायक विभोस्तव सुप्रभातम् त्रय्यन्तवागमृतसागरसारमूर्ते वाराणसीपति परिष्टुत पुण्यकीर्ते वाञ्छादिकम् दलित भक्तजनेष्टपूर्ते वामोरुकल्पितकराग्रक सुप्रभातम् स्वानन्द पुण्यनगरेण वरत्नसौधे सिंहासने प्रियवधू विनिवेश्य पार्श्वे जाबालिकाश्यपमदङ्गमुखैर्मुनीन्द्रैः पट्टाभिषिक्तगणनायक सुप्रभातम् वैकुण्ठपद्मभववीचितचामरस्य सूत्रामदारितसितातपवारणस्य कुम्भोदरेण धृतपादसरोरुहस्य भद्रासनस्य नृपतेस्तव सुप्रभातम् क्षीराम्बुधौ श्रुतिगणः कमले निविष्टौ पूर्वम् सकाश्यपमुनिर्निजपर्णकुड्या स्वानन्दराजसदनेषु यताम् मुनीन्द्राः त्वाम् बोधयामि च तदा तव सुप्रभातम् श्रीसुन्दरेशकविकीर्तितसुप्रभातम् एतत्पठन्ति सचिवाः परया च भक्त्या सम्प्राप्य सर्वमभिवाञ्छितमत्र लोके दीव्यन्ति वासव इवामरराजधान्या।